अथ चतुर्थः सर्गः। श्रुत्वा हनूमतो वाक्यम् यथा वदनु पूर्वशः ततो ब्रवीन्महातेजा रामः सत्यपराक्रमः यन्निवेदयसे लङ्काम् पुरीम् भीमस्य रक्षसः क्षिप्रमेणाम् वधिष्यामि सत्यमेतद्ब्रवीमिते अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय युक्तो मुहूर्ते विजये प्राप्तो मध्यम् दिवाकरः सीताम् हृत्वा तु तद्यातु क्वासौ यास्यति जीवितः सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते जीवितान्ते मृतम् स्पृष्ट्वा पीत्वा मृतमिवातुरः उत्तराफाल्गुनी ह्यद्यश्वस्तु हस्तेन योक्ष्यते अभिप्रयाम सुग्रीव सर्वानीकसमावृताः निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै निहत्य रावणम् सीतामानयिष्यामि जानकीम् उपरिष्टाध्यनयनम् स्फुरमाणमिमम् मम विजयम् समनुप्राप्तम् शंसतीव मनोरथम् ततो वानरराजेन लक्ष्मणेन सुपूजितः उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् वृतशतसहस्रेण वानराणाम् तरस्विनाम् फलमूलवता नीलशीतकाननवारिणा पथा मधुमता चाशु सेनाम् सेनापतेन या दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् राक्षसाः पथि रक्षेथास्तेभ्यस्त्वम् नित्यमुद्यतः निम्नेषु वनदुर्गेषु वनेषु च वनौकसः अभिप्लुत्याभिपश्येयुः परेषाम् निहितम् बलम् यत्तु फल्गुबलम् किञ्चित् तदत्रैवोपपद्यत एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् सागरौघनिभम् भीममग्रानीकम् महाबलाः कपिसिंहाः प्रकर्षन्तु शतशोथसहस्रशः गजश्च गिरिसङ्काशो गवयश्च महाबलः गवाक्षश्चाग्रतो यातु गवान् दृप्त इव ऋषभः यातु वानरवाहिन्या वानरः प्लवताम् पतिः पालयन् दक्षिणम् पार्श्वमृषभो वानरऋषभः गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः यातु वानरवाहिन्याः सव्यम् पार्श्वमधिष्ठितः यास्यामि बलमध्येऽहम् बलौघमभिहर्षयन् अधिरुह्य हनूमन्तमैरावतमिवेश्वरः अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ऋक्षराजो महाबाहुः कुक्षिम् रक्षन्तु ते त्रयः राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः व्याधिदेशमहावीर्यो वानरान् वानरऋषभः ते वानरगणाः सर्वे समुत्पत्यमहौजसः गुहाभ्यः शिखरेभ्यश्च आशु पुप्लिविरे तदा ततो वानरराजेन लक्ष्मणेन च पूजितः जगामरामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् शतैश्शतसहस्रैश्च कोटिभिश्चायुतैरपि वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा तम् यान्तमनुयान्ती सा महती हरिवाहिनी हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः क्ष्वेलन्तोनिन दन्तश्च जग्मुर्वै दक्षिणाम् दिशम् भक्षयन्तः सुगन्धीनि मधूनि च फलानि च उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः अन्योन्यम् सहसा दृप्ता निर्वहन्ति क्षिपन्ति च पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् रावणो नो निहन्तव्यः सर्वे चरजनीचराः इति गर्जन्ति हरयो राघवस्य समीपतः पुरस्तादृशभो नीलो वीरः कुमुद एव च पन्थानम् शोधयन्ति स्म वानरैर्बहुभिः सह मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः सर्वामेको ह्यवष्टभ्यररक्ष हरिवाहिनी कोटीशतपरीवारः केसरीपनसो गजः अर्कश्च बहुभिः पार्श्वमेकम् तस्याभिरक्षति सुषेणो जाम्बवांश्चैव रक्षैर्बहुभिरावृतौ सुग्रीवम् पुरतः कृत्वा जघनम् संररक्षतुः तेषाम् सेनापतिर्वीरो नीलो वानरपुङ्गवः सम्पतन् प्लवताम् श्रेष्ठस्तद्बलम् पर्यवारयत् दरीमुखः प्रजङ्घश्च जम्भोथरभसः कपिः सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् एवम् ते हरिशार्दूला गच्छन्ति बलदर्पिताः अपश्यन्त गिरिश्रेष्ठम् सह्यम् गिरिशतायुतम् सरांसि च सुफुल्लानि तटाकानि वराणि च रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् वर्जयन्नागराभ्याशांस्तथा जनपदानपि सागरौघनिभम् भीमम् तद्वानरबलम् महत् निःससर्पमहाघोरम् भीमघोषमिवार्णवम् तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः तूर्णमापप्लुवः सर्वे सदश्वा इव चोदिताः कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ महद्भ्यामिव संस्पृष्टौ ग्रहाभ्याम् चन्द्रभास्करौ ततो वानरराजेन लक्ष्मणेन सुपूजितः जगामरामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् तमङ्गदगतो रामम् लक्ष्मणः शुभया गिरा उवाच परिपूर्णार्थम् पूर्णार्थप्रतिभानवान् हृतामवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् समृद्धार्थः समृद्धार्थामयोध्याम् प्रति यास्यसि महान्ति च निमित्तानि दिवि भूमौ च राघव शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये अनुवाति शिवो वायुः सेनाम् मृदुहितः सुखः पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः उशना च प्रसन्नार्चिरणुत्वाम् भार्गवो गतः ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः अर्चिष्वन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् त्रिशङ्कुर्विमलो भाति राजर्षिः स पुरोहितः पितामहः पुरोऽस्माकमिक्ष्वाकूणाम् महात्मना विमले च प्रकाशेते विशाखे निरुपद्रवे नक्षत्रम् परमस्माकमिक्ष्वाकूणाम् महात्मना नैरृतम् नैरृतानाम् च नक्षत्रमतिपीड्यते मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना सर्वम् चैतद्विनाशाय राक्षसानामुपस्थितम् काले कालगृहीतानाम् नक्षत्रम् ग्रहपीडितम् प्रसन्नास्वरसाश्चापो वनानि फलवन्ति च प्रवान्ति नाधिका गन्धा यथर्तु कुसुमाद्रुमाः व्यूढानि कपि सैन्यानि प्रकाशन्तेऽधिकम् प्रभो देवानामिव सैन्यानि सङ्ग्रामे तारकामये एवमार्य समीक्ष्यैतत्प्रीतो भवितुमर्हसि इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् अथावृत्यमहीम् कृत्स्नाम् जगामहरिवाहिनी ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैरपि कराग्रैश्चरणाग्रैश्च वानरैरुद्धतम् रजः भीममन्तर्दधे लोकम् निवार्य सवितुः प्रभा सपर्वतवनाकाशम् दक्षिणाम् हरिवाहिनी छादयन्तीययौ भीमाद्यामि वाम्बुदसन्ततिः उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् नदी स्रोतांसि सर्वाणि सस्यम् दुर्विपरीतवत् सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् समान् भूमिप्रदेशांश्च वनानि फलवन्ति च मध्येन च समन्ताच्च तिर्यक्चाधश्च साविशत् समावृत्य महीम् कृत्स्नाम् जगाम महती च मूः ते हृष्टवदनाः सर्वे जग्मुर्मारुतरम् हसः हरयो राघवस्यार्थे समारोपितविक्रमाः हर्षम् वीर्यम् बलोद्रेकान् दर्शयन्तः परस्परम् यौवनोत्सेकजाद्दर्पाद्विधांश्चक्रुरध्वनी तत्र केचिद्रुतम् जग्मुरुत्पेतुश्च तथा परे केचित् किल किलाम् चक्रुर्वानरावनगोचराः प्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि भुजान्विक्षिप्य शैलांश्च द्रुमानन्येव भञ्जिरे आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः महानादान् प्रमुञ्चन्ति क्ष्वेणामन्ये प्रचक्रिरे ऊरुवेगैश्च ममृदुर्लता जालान्यनेकशः जृम्भमाणाश्च विक्रान्ता विजिक्रीडुः शिलाद्रुमैः ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः वानराणाम् सुघोराणाम् श्रीमत्परिवृतामही सास्मयाति दिवा रात्रम् महती हरिवाहिनी प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः प्रमोक्षयिषवः सीताम् मुहूर्तम् क्वापि नावसन् ततः पादपसम्बाधम् नानावनसमायुतम् सह्यपर्वतमासाद्य वानरास्ते समारुहन् काननानि विचित्राणि नदी प्रस्रवणानि च पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च चम्पकांस्तिलकांश्चूतानशोकान् सिन्धुवारकान् तिनिशान्करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान् जम्बूकामलकान्नीपान् भञ्जन्ति स्म प्लवङ्गमाः प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु अधिकम् शैलराजस्तु धातुभिस्तु विभूषितः अधातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः सुमहद्वानरानीकम् छादयामास सर्वतः गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः चिरिबिल्वामधूकाश्च वञ्जुलाबकुलास्तथा रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा हिन्तालास्तिनिशाश्चैव चूर्णकानीपकास्तथा नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा प्रीयमाणैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः वाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च चक्रवाकानुचरिताः कारण्डवनिषेविताः प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः वृक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा वारिजैर्विविधैः पुष्पैरम्यास्तत्र जलाशयाः तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः फलान्यमृतगन्धीनि मूलानि कुसुमानि च बभञ्जुर्वानरास्तत्र पादपानाम् मदोत्कटाः द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ययः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे बभूव वसुधातैस्तु सम्पूर्णा हरिपुङ्गवैः यथा कलमकेदारैः पक्वैरिव वसुन्धरा महेन्द्रमथ सम्प्राप्य रावो राजीवलोचनः आरुरोह महाबाहुः शिखरम् द्रुमभूषितम् ततः शिखरमारुह्य रामो दशरथात्मजः कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् आसेदुरानुपूर्व्येण समुद्रम् भीमनिस्वनम् अवरुह्य जगामाशु वेलावनमनुत्तमम् रामो रमयताम् श्रेष्ठः स सुग्रीवः स लक्ष्मणः अथ धौतोपलतलाम् तोयौघैः सहसोत्थितैः वेलामासाद्य विपुलाम् रामो वचनमब्रवीत् एते वयमनुप्राप्ताः सुग्रीववरुणालयम् इहेदानीम् विचिन्ता सा यानः पूर्वमुपस्थिता अतः परमतीरोऽयम् सागरः सरिताम् पतिः न चायमनुपायेन शक्यस्तरितुमर्णवः तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह यथेदम् वानरबलम् परम् पारमवाप्नुयात् इतीव स महाबाहुः सीताहरणकर्षितः रामः सागरमासाद्य वासमाज्ञापयत्तदा सर्वाः सेनानिवेश्यन्ताम् वेलायाम् हरिपुङ्गव सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने स्वाम् स्वाम् सेनाम् समुत्सृज्य मा च कश्चित् कुतो व्रजेत् गच्छन्तु वानराः शूरा ज्ञेयम् छन्नम् भयम् च नः रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः सेनाम् निवेशयत्तीरे सागरस्य द्रुमायुते विरराजसमीपस्थम् सागरस्य च तद्बलम् मधुपाण्डुजलश्रीमान् द्वितीय इव सागरः वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः निविष्टाश्च परम् पारम् काङ्क्षमाणा महोदधेः तेषान्निविशमानानाम् सैन्यसन्नाहनिःस्वनः अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे सा वानराणाम् ध्वजिनी सुग्रीवेणाभिपालिता त्रिधा निविष्टा महती रामस्यार्थपराभवत् सा महार्णवमासाद्य हृष्टा वानरवाहिनी वायुवेगसमाधूतम् पश्यमाना महार्णवम् दूरपारमसम्बाधम् रक्षो गणनिषेवितम् पश्यन्तो वरुणावासम् निषेदुर्हरियूथपाः चण्डनक्रग्राहघोरम् क्षपादौ दिवसक्षये हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः चन्द्रोदये समुद्भूतम् प्रतिचन्द्रसमाकुलम् चण्डालिलमहाग्राहैः कीर्णम् तिमितिमिङ्गिलैः दीप्तभोगैरिवाकीर्णम् भुजङ्गैर्वरुणालयम् अवगाढम् महासत्त्वैर्नानाशैलसमाकुलम् सुदुर्गम् दुर्गमार्गम् तमगाधमसुरालयम् मकरैर्नागभोगैश्च विगाढा वातलोलिताः उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः अग्निचूर्णमिवाविद्धम् भास्वराम्बुमहोरगम् सुरारिनिलयम् घोरम् पातालविषयम् सदा सागरम् चाम्बरप्रख्यमम्बरम् सागरोपमम् सागरम् चाम्बरम् चेति निर्विशेषमदृश्यत सम्पृक्तम् नभसाप्यम्भः सम्पृक्तम् च नभोऽम्भसा तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले समुत्पतितमेघस्य वीचिमालाकुलस्य च विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च अन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ఊర్మయః సింధురాజస్య మహాభేర్య ఇవాంబరే రత్తౌఘజల సన్నాదం విషక్తమివ వాయునా ఉత్పతంతమివ క్రుద్ధం యాదో గణసమాకులం దదశస్తే మహాత్మానో వాతాహత జలాశయం అనిలోద్ధూతమాకాశే ప్రబలాంతమివోర్మిభిః తతో విస్మయమాపన్నా హరయో దదృశస్థితాః భ్రాంతోర్మిజాల సన్నాదం ప్రలోలమివ సాగరం ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆది కావ్యే యుద్ధకాండే చతుర్థ సర్గః